ప్రతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పతాన శృణ్వన్నోతిభిస్వేదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతి దీనామవిత్రయవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమణ్యవభూతోతయిషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాతయిషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనూర ఘోరా పాపకాశిని తయానస్తను వాశంతమయా గిరిశంతాభిచాకసి యామిషం గిరిశంతహస్తే వివర్షస్తవే శివాం గిరిత్రతాం కురు మాహిగుంసి పురుషం జగత్ శివేన వచసా త్వా గిరిశాచా వదామసి యథా నః సర్వమి జగద యక్ష్మగుం సుమనా అసత్ అద్య వోచదధి వక్తా ప్రథమో దైవ్యోభిషక్ అనేకశ్చ సర్వాన్ జంభయన్ సర్వాశ్చ యాతు ధాన్యః అసౌ యస్తామ్రో అరుణభూత బభ్రుసు మంగళః యే క్షేమాగుం రుద్రాభితో దిక్షు శ్రితా సహస్రశో వైశాగుం మేళయీమహే అసౌ యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా దృశన్న దృశన్నుదహార్యః ఉతైనం విశ్వభూతాని సదృశ్యో మృడయాదినః నమోస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అథో యే అస్య సత్వానోహం తేభ్యో కరన్నమః ప్రముంచ ధన్వనస్త్వముభయోరాత్మీయోజ్యాం తేహస్తైషవ పరాత భగవో వప అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు దే నిషేర్య శల్యానాం ముఖా శివో నః సుమనా భవ విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం హుత అనేషన్న శేషవ ఆవురస్య నిషంగతిః యాతే హేతిర్మీడుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్వమయక్ష్మయా పరిభుజ నమస్తే అస్వాయుధాయానాదతాయ ధృష్ణవే ఉభాభ్యాముదతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణత్ तु विश्वतः अधोय इषु दिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ॐ शान्ति शान्ति शान्तिः विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विमने रजागुंसियो अस्तभायदुत्तरगुं सदस्तं विचक्रमाणस्त्रेदोरुगायः विष्णोरराटमसि विष्णो पृष्टमसि विष्णो क्षत्रे सो विष्णो स्यूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमभिपादोऽस्याम् नरो यत्र देवयवो मदन्ति गुरुक्रमस्य स हि बन्धुरित्ता विष्णो पदे परमे मध्व उत्सः प्रदद्विष्णुस्तव ते वीर्याय मृगो न भीमः कुचरो गिरिष्टाः यस्योरुषु त्रिषु विक्रमणेषु अधिक्षयन्ति भुवनानि विश्वा परो मात्रया तनुवावृदाना न ते महित्वमन्वश्नुवन्ति उभे ते विद्मरजसि पृथिव्या विष्णो देवत्वम् परमस्य विश्वे विचक्रमे पृथिवी मेषयेताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य कीरयोजना सह उरुक्षितिकम् सुजनिवाचकार त्रिदेव पृथिवी मेषयेताम् विचक्रमे शतच सम्महित्वा प्रविष्णुरस्तु तव सस्तवीयान् द्वेषगुह्यस्य स्तविरस्य नाम अतो देवावन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या सप्तदामभिः इदम् विष्णुर्विचक्रमे त्रेदानि ददे पदम् समूढमस्य पागुम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपादाभ्यः ततो धर्माणि धारयन् विष्णो कर्माणि पश्यत यतो व्रतानि पश्पशे इन्द्रस्य युज्यस्सखा तद्विष्णो परमम् पदगम् सदा पश्यन्ति सूरयः दिवि वचक्षुरातम् तद्विप्रासो विपण्यवो जागृवागुम् सस्तमिन्दते विष्णोर्यत्परमम् पदम् पर्याप्यानन्तरायाय सर्वस्तोमोऽति रात्र उत्तममहद्भवति सर्वस् ಸರ್ವಸ್ಯಾಪ್ತ್ಯೈ ಸರ್ವಸ್ಯ ಜಿತ್ಯೈ ಸರ್ವಮೇವ ತೇನಾಪ್ನೋತಿ ಸರ್ವಂ ಜಯತಿ. ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ. ಛಂದಸಾಮೃಷಭೋ ವಿಶ್ವರೂಪಃ ಛಂದೋಭ್ಯೋದ್ಯಮೃತಾಸ್ತಂ ಬಭೂವ ಸಮೇಂದ್ರೋ ಮೇದಯಾ ಸ್ಪೃಣೋತು ಅಮೃತಸ್ಯ ದೇವಧಾರಣೋ ಭೂಯಾಸಂ ಶರೀರಂ ಮೇ ವಿಚರ್ಷಣಂ ಜಿಹ್ವಾ ಮೇ ಮಧುಮತ್ತಮ ಕರ್ಣಾಭ್ಯಾಂ ಭೂರಿ ವಿಶ್ರುವಂ ಬ್ರಹ್ಮಣ ಕೋಶೋಸಿ ಮೇಧಯಾ ವಿಹಿತಃ ಶ್ರುತಂ ಮೇ ಗೋಪಾಯ ಮೇಧಾ ದೇವಿ ಜುಷಮಾನಾನ ಆಗಾ ವಿಶ್ವಾಚಿ ಭದ್ರಾಸು ಮನಸ್ಯ ಮಾನ ತ್ವಯಾ ಜುಷ್ಟಾನುದಮಾನ ದುರುಕ್ತಾನ್ ಬೃಹದ್ವದೇಮ ವಿದತೆ ಸುವೀರಾ ತ್ವಯಾ ಜುಷ್ಟ ಋಷಿರ್ಭವತಿ ದೇವಿ ತ್ವಯಾ ಬ್ರಹ್ಮ ಗತ ಶ್ರೀರುತತ್ವಯಾ ತ್ವಯಾ ಜುಷ್ಟಶ್ಚಿತ್ರಂ ವಿಂದದೇವ ಸುಸಾನೋ ಜುಷಸ್ವದ್ರವಿಣೋ ನ ಮೇರೇ ಮೇಧಾ ಮಹೀಂದ್ರೋ ದದಾತು ಮೇಧಾಂ ದೇವೀ ಸರಸ್ವತೀ ಮೇಧಾ ಮೇ ಅಶ್ವಿನಾ ಉಭಾವಾ ದತ್ತಾಂ ಪುಷ್ಕರಸ್ರಜಾಂ ಅಪ್ಸರಾಸು ಚಯಾ ಮೇಧಾ ಗಂಧರ್ವೇಷು ಚಯನ್ಮನಃ ದೈವೀ ಮೇಧಾ ಸರಸ್ವತೀ ಸಾ ಮೇಧಾ ಸುರಭಿರ್ಜುಷತಾ ಗುಸ್ವಾಹ ಆಮಾ ಮೇಧಾ ಸುರಭಿರ್ವಿಶ್ವರೂಪಾ ಊರ್ಜಸ್ವತೀ ಪಯಸಾ ಪಿಂದಮಾನಾ ಸಾಮಾ ಮೇಧಾ ಸುಪ್ರತೀಗಾ ಜುಷಂತಾಂ ಮಯಿ ಮೇಧಾ ಮಯಿ ಪ್ರಜಾ ಮಯಿ ಅಗ್ನಿಸ್ತೇಜೋ ದದಾತು ಮಯಿ ಮೇಧಾ ಮಯಿ ಪ್ರಜಾ ಮೈಂದ್ರ ಇಂದ್ರಿಯಂ ದದಾತು ಮಯಿ ಮೇಧಾ ಮಯಿ ಪ್ರಜಾ ಮಯಿ ಸೂರ್ಯೋ ರಾಜೋ ದದಾತು ಹಂಸ ಹಂಸಾಯ ವಿದ್ಮಹೆ ಪರಮಹಂಸಾಯ ಧೀಮಹಿ ತನ್ನೋ ಹಂಸ ಪ್ರಚೋದಯಾತ್. ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ. ಭೂಮಿರ್ಭುವ್ನಾದ್ಯೌ ವರಿಣಾಂತರಿಕ್ಷಂ ಮಹಿತ್ವಾ ಉಪಸ್ಥೇತೆ ದೇವ್ಯದಿತೇಗ್ನಿಮನ್ನಾದ ಮನ್ನಾಧ್ಯಾಯಾದರೆ ಆಯಂಗೌ ಪೃಷ್ಣಿರಕ್ರಮೀದಶನನ್ ಮಾತರಂ ಪುನಃ ಪಿತರಂಚ ಪ್ರಯಂ ಸುವಃ ತ್ರಿಗುಂಶದ್ಧಾಮವಿರಾಜತಿ ವಾಕ್ಪತಂಗಾಯ ಶಿಷ್ಯೇ ಪ್ರತ್ಯಸ್ಯ ವಹಜ್ಯುಭಿಃ ಅಸ್ಯ ಪ್ರಾಣಾದಪಾನತ್ಯಂತಶ್ಚರತಿ ರೋಚನ ವ್ಯಖ್ಯನ್ ಮಹಿಷಸುವಃ ಯತ್ವಾ ಕ್ರುದ್ಧ ಪರೋವಪಮನ್ಯುನಾಯದವತ್ಯ ಸುಕಲ್ಪಮಗ್ನೇ तत्तव पुनस्वोदीपयामसि यत्ते मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् मनो ज्योतिर्जुषतामाज्यम् विच्छिन्नम् यज्ञम् समिमम् ददातु बृहस्पतिर्तनुतामिमम् नो विश्वे देवा इह मादयन्ताम् मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवचसः पितृणागश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने वीरा समुद्रवती सावित्री हनो देवी मह्यंगी महीधरणी महो व्यधिष्ठा शृंगे शृंगे यज्ञे यज्ञे विभीषिणी इंद्रपत्नी व्यापिनी सुरसरिधिहा वायुमती जलशयनी श्रियं दाराजा सत्यं दोपरिमेदिनी स्वोपरि दत्तं परिगाया विष्णुपत्नी मरीं देवी माधवी माधवप्रिया लक्ष्मी प्रियसखीं देवीं नमाम्यच्युतवल्लभां धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् महीं देवीं विष्णुपत्नीमजोर्याम् प्रतीचीमेनागुं हविषाय जामः त्रेधा विष्णुरुगायो विचक्रमे महीं दिवं पृथिवीमन्तरिक्षम् तच्छोणैतिश्रव इच्छमाना पुण्यगुश्लोकं यजमानाय कृण्वति ॐ शान्ति शान्ति शान्तिः जातवेदसे सुनवामसो ममराति यतो निदहाति वेदः स नः पर्षदति दुर्गाणि विश्वानावेव सिन्धु दुरितात्यग्निः तामग्निवन्नाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टाम् दुर्गाम् देवी गुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूष्य पृथ्वी बहुलान उर्वी भवातोकायतनयाय संयोः विश्वानिनो दुर्गः दुरितातिपर्षि अग्ने अत्रिवन्मनसा गृणानो स्माकम् बोध्य वितातनूनाम् पृतनाजितगुम् सहमानमुग्रमग्निगुम् हुवेम परमा सदस्ता शतति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषि कमीयो अध्वरेषु सना च होता नव्यस्य सत्सि स्वाञ्चाग्ने तनुवम् पिप्रय स्वास्माभ्यञ्चसौ भगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्टमभिसंवसानो वैष्णवीम् लोक इह मादयन्ताम् कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गि प्रचोदयात् ॐ शान्ति शान्ति शान्तिः हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयी लक्ष्मीम् जातवेदो महावह तामावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयम् गामस्वम् पुरुषानहम् अश्वपूर्वाम्रदमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्मा देवी जुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारा माद्राम् ज्वलन्तीम् तृप्ता तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रेयम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वामृणे आदित्यवर्णे तपसोदि जातो वनस्पतिस्तव वृक्षोद बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या लक्ष्मीः उपैतु माम् देवसकः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठा अलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वाम् निर्नुद मे गृहात् गन्धद्वाराम् दुरादर्श्याम् नित्यपुष्टाम् करीषिणीम् ईश्वरीगुम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकूतिम् वाचः सत्यमसीमहि पशूनाम् रूपमन्नस्य मयि श्रेष्ठयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् रुजन्तु स्निग्धानि चिक्लेदवस मे गृहे निच देवी मातरं श्रियं वासय मे कुले आद्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो महावः आद्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो महावः तामावह जातवेदो लक्ष्मीमनपगामिनीं यस्यां हिरण्यं प्रभूतं गावो दास्यो स्वान् विन्देयं पुरुषानहम् यस्सुचिप्रयतो भूत्वा जुहुयादाज्यमन्वहम् श्रियः पञ्चदश चञ्च श्रीकामः सततं जपेत् पद्मानने पद्म ऊरु पद्माक्षी पद्मसम्भवे त्वमां भजस्व पद्माक्षि येन सौख्यं लभाम्यहम् अश्वदायी गोदायी धनदायी महाधने धनं मे जुषतां देवि सर्वकामाश्च देहि मे पुत्रपौत्रधनं धान्यं हस्त्यश्वादिगवेरदम् प्रजानां भवति माता आयुष्मन्तं करोतु माम् धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते वैनते यसोमं पिब सोमं पिबतु वृत्रः सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः न क्रोधो न च माश्चर्यं न लोभो नाशुभामतिः भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपे सदा वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्मद्विषोजहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधस्व या सा पद्मासनस्ता विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरिया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्नापिता हे अकुम्भैः नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मी क्षीरसमुद्रराजतनयां श्रीरङ्गदामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुरां श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियां सिद्धलक्ष्मी मोक्षलक्ष्मी जयलक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशौपाशमभीतिमुद्राम् करैर्वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिभाम् त्रिनेत्राम् भजेऽहमम्बाम् जगदीश्वरीम् त्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्ति शान्ति शान्तिः पुरुषस्य विद्महसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुख प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुड प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णगदृशाय धीमहि तन्नो नारसिगुंह प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्य प्रचोदयात् वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्नि प्रचोदयात् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् सहस्रपरमा देवी शतमूला शताङ्कुरा सर्वगुं हरतु मे पापम् दूर्वा दुःस्वप्ननाशिनी काण्डात् काण्डात् प्ररोहन्ति परुष परुष परि एवानो दूर्वे प्रतनु सहस्रेण शतेन च या शतेन प्रतनोषि सहस्रेण विरोहसि तस्यास्ते देवी सके विदेमः हविषा वयम् अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा शिरसा धारयिष्यामि रक्षस्व माम् पदे पदे राजाधिराजाय प्रसह्य साहिने नमो वयं वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणाय ध्यातु कुबेराय वै श्रवणाय प्रजाभ्यः परिपालयन्ता न्यायेन मार्गेण महीमहिषा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति